गणाना गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन् नोदिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिः वाजिनीवती धेनाम वित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृळया याते रुद्र शिवा तनुरघोरा पापकाशिनी तयानस्तनुवाशन्तमया गिरिशन्ताभिजागशीः यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहिगुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहीगुश्च सर्वाजम्भयन् सर्वायातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेवागुम् रुद्रा अभितो दिक्षु श्रितात्सहस्रशो वैशागुम् हेण इमहे असव्यो वसत्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहाद्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधो ये अस्य सत्त्वानोऽहम् तेभ्यो गरम् नमः प्रमुञ्चधन्वनस्त्वमुपयोरात्रियोर्जाम् याश्च देहस्त इषव परादा भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु ते निशीर्य शल्यानामुका शिवो न सुमना भव विज्यम् धनुः कपद्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गदिः या देहे धर्मी दुष्टमहस्ते बभूवते धनुः तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाततय दृष्णवेगे उभाभ्यामुत ते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्मृणक्तु विश्वतः अधो यहिषुदिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्धकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्यु जयाय सर्वेश्वराय सदाशिवाय ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯಭಾಗವೇತೇ ನಾಜ್ಞೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸಸ್ತೇ ಜಲಾಯ ತ್ವಿಷೇಭತೇ ಪದೇನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಬಬ್ಲುಷಾಯ ವಿವ್ಯಾಧಿನೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಹರಿಕೇಶಾಯೋಪವೇದಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭವಸ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರುದ್ರಾಯ ತಥಾ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸೋತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರೋಹಿತಾಯ ತಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಮಂತ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭುವಂತಯೇ ವಾರಿವತ್ಕೃತಾಯೌಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಚ್ಚೈರ್ಕೋಶಾಯ ಕ್ರಂದಯತೇ ಪತ್ರೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಕ್ರಿಸ್ತವೀತಾಯ ಧಾವತೇ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ ನಮಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾದಿನ ಆವ್ಯಾದಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಕಕುಭಾಯ ನಿಷಂಗಿನೇ ಸೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಷಂಗಿನಗೆ ಶುಧಿಮತೇ ತಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ವಂಚತೆ ಪರಿವಂಚತೆ ಸಾಯೋನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸೃಕಾವಿಭ್ಯೋ ಜಿಗಾಗುಂಸದ್ಭ್ಯೋ ಮುಷ್ಣತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂ ಜರಭ್ಯ ಪ್ರಕೃಂದಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಜಾನಾಂ ಪತಯೇ ನಮೋ ನಮಯಿಷು ಮದ್ಭ್ಯೋ ದನ್ವಾವಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆದನ್ವಾನೇಭ್ಯ ಪ್ರದಿದಧಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಯಚ್ಛದ್ಭ್ಯೋ ವಿಸೃಜಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋಸ್ಯದ್ಭ್ಯೋ ವಿದ್ಯಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಸೀನೇಭ್ಯ ಶಯಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ತಿಷ್ಟದ್ಭ್ಯೋ ಧಾವದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸಭಾಭ್ಯ ಸಭಾಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ವೋ ನಮಃ ನಮ ಆವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಉಗಣಾಭ್ಯಸ್ತ್ರಿಗುಂಹದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪದಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ವ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪದಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಗಣೇಭ್ಯೋ ಗಣಪದಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥಪದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸೇನಾಭ್ಯಸೇನಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕ್ಷತ್ರ ಕರ್ತೃಭ್ಯಃ ಸಂಗ್ರಹೇತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಸಕ್ಷದ್ಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕುಲಾಲೇಭ್ಯಃ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಪುಂಜಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಗೆ ಶುಕೃದ್ಭ್ಯೋ ಧನ್ವಕೃದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯಶ್ವನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಸ್ವಭ್ಯಶ್ವಪತಿಭ್ಯಶ್ಚ ವೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಶರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿವಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀಡುಷ್ಟಮಾಯ ಚೇಷುಮತೇ ಚ ನಮೋ ರತ್ವಾಯ ಚ ಬಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೀಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಆಶವೇ ಚಾಚಿರಾಯ ಚ ನಮಃ ಶೀಘ್ರಿಯಾಯ ಚ ಶೀಭ್ಯಾಯ ಚ ನಮಃ ಓರ್ಭ್ಯಾಯ ಚ ವತ್ಸನ್ಯಾಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೇಭ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುದ್ಧಿಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸಜ್ಞಾಯ ಚ ನಮೋ ಜ್ಞಾಭ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಉರ್ವರ್ಯಾಯ ಚ ಘಲ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚ ಅವಧಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷ್ಯಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮಃ ಆಶುಷೇಣಾಯ ಚ ಶುರದಾಯ ಚ ನಮಃ ಶೂರಾಯ ಚ ವಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೋಧಿನೇ ಚ ನಮೋ ಬಿಲ್ಮಿಣೇ ಚ ಕವಚಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಹನನ್ಯಾಯ ಚ ನಮೋ ದೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಚ್ಯುತಿಮತೇ ಚ ನಮಃ ತೀಕ್ಷ್ಣೇಶವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಶ್ರುತ್ಯಾಯ ಚ ಪತ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ ಸೋದ್ಯಾಯ ಚ ಸನತ್ಯಾಯ ಚ ನಮೋ ನಾದ್ಯಾಯ ಚ ವೈಷಂದಾಯ ಚ ನಮಃ ಕೋಪ್ಯಾಯ ಚ ವಟ್ಯಾಯ ಚ ನಮೋ ವಶ್ಯಾಯ ಚ ವಶ್ಯಾಯ ಚ ನಮೋ ಮೇಘ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮಃ ಈದ್ರಿಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ತಾಮ್ರಾಯ ಚ ಋಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮಃ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇ ಪಧಾಯ ಚ ದೂರೇ ಪಧಾಯ ಚ ನಮೋ ಹಂತೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಯ ನಮಃ ಜಂಭವೇ ಚ ಮಯೋ ಭವೇ ಚ ನಮಃ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮಃ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮಃ ತೀರ್ಥ್ಯಾಯ ಚ ಕೋರ್ಯಾಯ ಚ ನಮಃ ಪಾದ್ಯಾಯ ಚ ವಾದ್ಯಾಯ ಚ ನಮಃ ప్రతరణాయ చోత్తరణాయ చ నమ ఆద్యాయ జాలాద్యాయ చ నమ షష్ప్యాయ చ భేన్యాయ చ నమ త్రికత్యాయ చ ప్రవాహ్యాయ చ నమ హిరణ్యాయ చ ప్రపత్యాయ చ నమ కిగుంశిలాయ చ క్షయనాయ చ నమ కపర్దినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమ స్తల్ప్యాయ చ గేఖ్యాయ చ నమ కాట్యాయ జగత్వరేష్టాయ చ నమో హృదయ్యాయ చ నివేష్ప్యాయ చ నమ పాగుంధవ్యాయ చ రజస్యాయ చ నమ శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమ ఊర్ధ్యాయ చ సోర్ణ్యాయ చ నమ పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో పగురమాణాయ చాభిఘ్నతే చ నమ ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగు హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్మక్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవక్కేభ్యః ద్రాపే అంధసస్పదే దరిద్రన్నీలలోహితాన్ ఏషాం పురుషాణామేషాం పశూనాం మాభేర్మారోమో ఏషాం కించనామమత్ యాతే రుద్ర శివా తనో శివా విశ్వాఘ భేషజీ శివా రుద్రస్య భేషజీ తయా నో మృడ జీవసే ఇమాగుం రుద్రాయ తవసే కపర్జినే క్షయద్వీరాయ ప్రబరామహేమతిం యథా నశ్యమసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రో తనో మయస్కృతి క్షయద్వీరాయ నమసా విధేమతే ఎచ్చం జయోశ్చమనురాగ జే పితా తదశ్యామ తవ రుద్ర ప్రణీతో మానో మహాంతముత మానో అర్భకం మాన ఉక్షంతముత మాన ఉక్షితం మానో వధే పితరం మోద మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోకే తనయే మాన ఆయుషి మానో గోషు మానో అశ్వేషు రీరిషః వీరాన్ మానో రుద్రభామితోపదేర్ అవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్రముత పూరుషగ్నే జయద్వీరాయ సుమ్నమస్మేతే అస్తు రక్షాజనో అదిజ దేవ రోహ్యథా జన శర్మ యచ్చద్విపరుహా సుఖిశ్రుతం గర్త సదం యువానం మృగన్న భీమముపహత్రుముగ్రం రిడాజరిద్రే రుద్రస్తవానో అన్యందే అస్మన్నివ బంధు సేనా పరిణో రుద్రస్య హేతే వృణక్తు పరిత్వేషస్య దుర్మదిరఘాయో అవస్థిరా మగవద్భ్యస్తనుష్మీద్వత్తోకాయతనయాయ మృడయా మీఢుష్టమశివతమశివో నోమనాభవ పరమే వృక్ష ఆయుధం నిధాయ కృత్యం వదానమాచర పినాకం బిభ్రదాగహీ వికిరిధ విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుమ్యేతయోన్యమస్మన్నివ బంధు సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవ పరాచీనాముఖాకృతి సహస్రాణి సహస్రశో యే రుద్రా అది భూమ్యా तेषा गुंसगत्रयो जने वदन्वानि धन्मसे अस्मिन् महत्यर्णवेन्दरिक्षे भवा अधि नीलग्रीवाशिति कण्ठा चर्वा अधः क्षमाचराः नीलग्रीवाशिति कण्ठा दिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सत्त्वेजरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिगातः कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिपदो जनान् ये पथां पतिरक्षय ऐलप्रदायव्युधः ये तीर्थानि प्रचलन्ति सृगावन्तो निषङ्गिणः यगेतावन्तश्च भूयागुन्दश्च दिशो रुद्राविदस्तिरे तेषागुन्दहस्रयो जने वधन्वानि धन्मसि नमो रुद्रेभ्यो ये पृथिव्यां येन्दरिक्षे ये दिविगे शावन्नं पातो वरुषमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशो दिचेर्दशोर्द्वातेभ्यो नमस्ते नो मृडयन्तु तेयं विश्वो यश्च नो द्वेष्टितं भोजं भेद त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशामत्यो मत्यायहन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्य शुसुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वाहेतो मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वमे सजोयगो शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाचेभिरागतम् वाजश्च मे प्रसवश्च मे प्रगतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च महाधीतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्ण च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्योश्च मे
भामश्च मे मश्च मे भश्च मे देवा च मे
महिमा च मे वरिमा च मे प्रतिभा च मे वर्ष्मा च मे द्रागुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे कृषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सोक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च मरुद्धं च मरुद्धिश्च मे
क्लुप्तं च मे क्लुप्तिश्च मे
मतिश्च मे सुमतिश्च मे छञ्च मे मयश्च मे प्रियं च मेणु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वत्स्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्दा च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संवेच्च मे ज्ञातं च मे दोश्च मे प्रसोश्च मे शीलं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयश्च मे दीवादुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे दोषा च मे सुदिनं च मे ओच्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सक्तिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मौद्धित्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुज मे प्रभुज मे बहुज मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाक् च मेनं च मे शुच्च मे व्रीहयश्च मे यवाश्च मे भाषाश्च मे इलाश्च मे मुद्दाश्च मे खल्वाश्च मे कोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अस्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रभुश्च मे श्यामं च मे लोहं च म अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्य च मे ग्राम्याश्च मे पजव आरण्याश्च यज्ञेन कल्पन्ता वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे
విష్ణుశ్చ మహేంద్రశ్చ మేష్వినౌ చ మహేంద్రశ్చ మే మరుతశ్చ మహేంద్రశ్చ మే విశ్వే చ మే దేవాగింద్రశ్చ మే పృథివీ చ మహేంద్రశ్చ మేంతరిక్షం చ మహేంద్రశ్చ మేభ్యోశ్చ మహేంద్రశ్చ మే దిశశ్చ మహేంద్రశ్చ మే మూర్ధా చ మహేంద్రశ్చ మే ప్రజాపతిశ్చ మహేంద్రశ్చ మే అగుంధుశ్చ మే రశ్మిశ్చ మేధాభ్యశ్చ మేధిపతిశ్చ మౌవాగుంధుశ్చ మే అంతర్యామశ్చ మైంద్రవాయవశ్చ మే మైత్రావరుణశ్చ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంధే చ మాగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మైంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదీయాశ్చ మే మహేంద్రశ్చ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్నీవతశ్చ మే హార్యోజనశ్చ ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధిష్ణీయాశ్చ మే సృజశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే త్వరవశ్చ ఉపరవాశ్చ మే దిశవనే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే భూతవృక్ష ఆధవనీయశ్చ ఆగ్నేయద్రం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సతశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వృదశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే శక్వరీరంగులయో దిశశ్చ మే యజ్ఞేన కల్పం తామ్రక్ష మే సామ చ మే సోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్రదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవే చ మే దిత్యవాచ్చ మే ద్విత్యౌహే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాచ్చ మే తుర్యౌహే చ మే పష్టవాచ్చ మే పష్టౌహే చ మవుక్షా చ మే వశా చ మరుషభశ్చ మే వేహశ్చ మే రడ్వాంచ మే ధేనుశ్చ మాయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతామపానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం శ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకాచ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మగేక విగుంశతిశ్చ మే త్రయో విగుంశతిశ్చ మే పంచ విగుంశతిశ్చ మే సప్త విగుంశతిశ్చ మే నవ విగుంశతిశ్చ మగేక త్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే చతస్రశ్చ మే ష్టౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంశతిశ్చ మే చతుర్విగుంశతిశ్చ మే అష్టావిగుంశతిశ్చ మే ద్వాత్రిగుంశ षट्चमे षट्त्रिगुंषट्चमे चत्वारिगुंषट्चमे चतुश्चत्वारिगुंषट्चमेष्टाचत्वारिगुंषट्चमे वाजश्च प्रसवश्चापिजश्च क्रतुश्च शुवश्च मूर्धा च व्यस्नियस्त्यान्त्यायनस्त्यान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानि सगुं त्रिषद्विश्वे देवासोक्तवाच पृथिवीमातर्वा माहिगुंसेर् मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाये पितरोऽनुमदन्तु ॐ शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपात् स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेहातिरोहति एतावानस्य महिमा अतोज्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्वबुधैर्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशरानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवायज्ञवतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्मयुग्मशरद्धविः सप्तास्यासन् परिधयः त्रिसप्तसमिदः कृताः देवाय यज्ञम् तन्वानाः अभद्रम् पुरुषम् पशुम् तञ्यज्ञम् बलिः शिप्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्मात्यज्ञात् सर्वहुतः संभृतम् पृषदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्मात्यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषं व्यगदुः कदिदा व्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहो राजन्यकृतः ऊरु तदस्य यद्वैश्यः पद्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णाद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वापि वदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्बोध पृथिव्यैरसा च विश्वकर्मणः समवर्तताति तस्य त्वष्टा विददद्रूपमेति तत्पुरुषस्य विश्ववाचानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिः सरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ग्रेष्यते लक्ष्मीश पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अर्त्रिणात्वा कृमे अग्ने कर्णेन जमदग्निना विश्वावसोर्ब्रह्मणाः कृमेणागुम् राजा अप्येषागस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिकाहताः श्वेताभिः सह सर्वे हताः आहरावद्य श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्णते ॐ शान्ति शान्ति शान्तिः
ॐ शन्नो मित्रश्यं वरुणः शन्नो भवत्वर्यमा शन्नगिन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि ऋतम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः शीक्षाम् व्याख्यास्यामः वर्णस्वरः मात्राबलम् सामसन्तानः इत्युक्तस्येच्छाध्यायः सह नौ यशः सह नौ ब्रह्मवर्चसम् अधातः स गुंहिताय उपनिषदम् व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् तामहासगुंहिता इत्याचक्षदे अधातिलोकम् पृथिवीपोर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अधादिज्यौदिशम् अग्निपोर्वरूपम् आदित्यमुत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्यौदिशम् अधादिविद्यम् आचार्यपोर्वरूपम् अन्ते वास्युत्तररूपम् विद्यासन्धिः प्रवचनगुम् सन्धानम् इत्यधिविद्यम् अधाधिप्रजम् मातापोर्वरूपम् पितोत्तररूपम् प्रजासन्धिः प्रजननगुम् सन्धानम् इत्यधिप्रजम् अधाध्यात्मम् अधराहनुपोर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मा महासगुंहिताः य एवमेता महासगुंहिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन यच्छन्दसा वृषभो विश्वरूपः छन्दोऽभ्योज्झमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवतारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाय आवहन्ते वितन्वाना कुर्वाणा चेरमात्मनः वासागुंसि मम गापश्च अन्नपाने च सर्वदा ततो मे श्रियमावह लोमशाम् पशुभिः सहस्वाहात् आमायन्दो ब्रह्मचारिणः स्वाहात् विमायन्दो ब्रह्मचारिणः स्वाहात् प्रमायन्दो ब्रह्मचारिणः स्वाहात् दमायन्दो ब्रह्मचारिणः स्वाहात् शमायन्दो ब्रह्मचारिणः स्वाहात् यशोजने सा निःस्वाहात् श्रेयान्वस्य सोऽसा निःस्वाहात् तन्त्वा भगप्रविशा निःस्वाहात् समाभगप्रविश स्वाहात् तस्मिन् सहस्रशाघे निभगाहम् द्वै मृजे स्वाहा यथा पप्रमतायन्ते यथा वासाहर्जलम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाबाहि प्रमापद्यस्वा भूर्भुवस्सु भरिति वा एतास्तिस्रो व्याहृदयः तासामुहस्मैताम् चतुर्थीम् माहाचमस्य प्रवेदयते महयिते तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुवयित्यन्तरिक्षम् सुवरित्यसौ लोकः महयित्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुवयिति वायुः सुवरित्यादित्यः महयिति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतिगुंसि महीयन्ते भूरिति वा ऋषः भुवयिति सामानि सुवरिति यजोगुंसि महयिति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुवयित्यपानः सुवरिति व्यानः महयित्यन्नम् अन्नेन वाप सर्वे के प्राणा महीयन्ते तावागेताश्चतस्रश्चतुर्था चतस्रश्चतस्रो व्याहृतयः तायो वेदा स वेद ब्रह्मा सर्वे येऽस्मै देवा बलिमा वहन्ते स य एषोऽन्तरहृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरे न तालुके यगेशस्तन इव बलम् वदे सेकेन्द्रयोनिः यत्रासौ केशान्तो व्यवर्तते व्यपोक्यजेश कपाले भूरित्यज्ञौ प्रतिष्ठते भुवयिति वायौ सुवरित्यादित्ये महयिति ब्रह्मणि आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्मा सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपास्व पृथिव्यन्तरिक्षम् द्योर्दिशो वान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् असाध्यात्मम् प्राणो व्यानोपानमुदानः समानः चक्षुश्रोत्रम् मनोवाक् चर्ममागुंसग्रस्नावास्ति मज्जा एतदतिविधाय ऋषिरवोचत् पाङ्क्तम् वा इदगुम् सर्वम् पाङ्क्तेनैव पान्तग्स्पृणोतीति ओमिति ब्रह्मा ओमितीदगुम् सर्वम् ओमित्येतदनुकृतिहस्म वा अप्योश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुं शोमिति शस्त्राणि शगुंसन्ति ओमित्यध्वर्युप्रतिघरम् प्रतिगृह्णाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रवक्षन्नाः ब्रह्मोपा प्रवानीति ब्रह्मैवोपाप्नोति रतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च दमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्रयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचाराधीतरः तप इति तपो नित्यपौरुसृष्टिः स्वाध्याय प्रवचने एवेति नागो मौद्गल्यः तद्धि तपस्तद्धि तपः अहम् वृक्षस्य रेरिव कीर्तिपृष्ठम् गिरेरिव ऊर्ध्वपवित्रो वाचनीव स्वमृतमस्मि द्रविणगुम् सवर्चसम् सुमेधा अमृतोच्चितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनुष्याचार्योऽन्ते वासिनमनुशास्ति
सत्यम् वरा
धर्मम् चर स्वाध्याया आन्मा प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्तुम् मा व्यवच्छेत्से सत्यान्न प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भूत्यैन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्याम्न प्रमदितव्यम् देवपितृकार्याभ्याम् न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव याज्ञनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्मागगुम् सुचरितानि तानि त्वयोपास्यानि नो इतराणि ये के चास्मच्छ्रेयागुंसो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् ह्रिया देयम् ह्रिया देयम् संविदा देयम् अधयति ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणा कासम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरन्न तथा तत्र वर्तेताः अथाभ्याख्यातेषु एतत्र ब्राह्मणाः सम्मर्जिनः युक्ताः युक्ताः अलोक्षाधर्मकामा स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेधाः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् छन्नो मित्रश्चम् वरुणः छन्नो भवत्वर्यवा छन्नगिन्द्रो बृहस्पतिः छन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मामावेत् तद्वक्तारमावेत् आवेत् माम् आवेद्वक्तारम् ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति